एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। पर्यटनाय देशान्तर प्रवेशानुज्ञापत्र भ्रष्टाचार प्रकरणस्य कारणेन दीर्घकालात् अवरुद्ध प्रतिनिधिसभायाः उपवेश ह्य सञ्चालितोऽस्ति। प्रतिपक्षिदलानां भागद्वये विभक्ते पश्चात् राष्ट्रिय स्वतन्त्र दलस्य राप्रपा दलस्य च सांसदानां विरोधस्य मध्येऽपि ह्यस्तनोपवेशः सञ्चालितोऽस्ति। सत्तारूढदलानां प्रमुख प्रतिपक्षिणो नेकपा माओवादी केन्द्रस्य च मध्ये ह्य एव सूत्रद्वयात्मक सहमतौ राप्रपा रासुपा दलाभ्याम् असहमतेर्धरणानन्तरम् विरोधस्य मध्येऽपि संसदः कार्याणि अग्रे वर्धितानि सन्ति। उपवेशे रासुपा राप्रपा दलयो सांसदानां विरोधस्य मध्ये गृहमन्त्रिणा रमेशलेखकेन पर्यटनाय देशान्तर प्रवेशानुज्ञापत्रस्य भ्रष्टाचार प्रकरणे स्वस्य कथम् विधापि संलग्नता नास्तीति स्पष्टीकृत्य अधिकार दुरुपयोगानुसन्धानायोगाय स्वस्य पूर्ण सहयोगो भविष्यतीति प्रतिबद्धता व्यक्तासीत्। तत्पूर्वं प्रतिपक्षिणो नेकपा माओवादी केन्द्रेण सह धृतायां सूत्रद्वयात्मक सहमतौ नेकपा एमाले दलस्य मुख्य सचेतक पदीयेन महेश कुमार बर्तौला विधेयेन, माओवादी केन्द्रस्य प्रमुख सचेतक पदीयेन हितराज पाण्डे विधेयेन च संसद सञ्चालनाय मार्ग प्रशस्ति कर्तुम् सहमति व्यक्तासीत्। सहमतौ पर्यटनाय देशान्तर प्रवेशानुज्ञापत्र प्रकरणे अध्यागमन विभागेन सम्बद्ध विषय च अधिकार दुरूपयोगानुसन्धानायोगाय सर्वकारेण सर्वविध सहयोगो विधातव्य तदर्थं सर्वकारेण प्रतिबद्धता प्रकटनीयेति उल्लिखितम् वर्तते। एवमेव सहमतौ प्रकरणेऽस्मिन् दृष्टाः समस्याः समाधातुं सर्वकारेण आवश्यकाध्ययनम् अनुसन्धानं च कृत्वा नीतिगताय विधिगताय संरचनागताय च सुधाराय उपयुक्त व्यवस्थायै प्रयासस्य कृते प्रतिबद्धता प्रकटनीयेति उल्लिखितम् वर्तते। प्रतिनिधिसभायाः अपरोपवेश स्व आषाढमासस्य प्रथमे दिवसे रविवासरे पूर्वाह्नस्य एकादशवादने वस्ता। राष्ट्रियसभया सांविधानिक परिषदः कार्यकर्तव्याधिकार कार्यविधि सम्बद्धम् 79-2000 विक्रम वर्षीयम् प्रथम संशोधन विधेयकम् पारितीकृतम् वर्तते। ह्यस्तनोपवेशे प्रधानमन्त्रिणः केपी शर्मा ओलिनः पक्षत कृषि पशुपक्षी विकास मन्त्रिणा रामनाथ अधिकारिणा प्रस्तुतः प्रस्तावोऽसौ विमर्शनानन्तरं सर्वसम्मत्या पारितीकृतोऽस्ति। एवमेव उपवेशे सार्वजनिक नीति प्रत्यायोजित विधायन समितेः सभापतिः माया प्रसाद शर्मा 49-2000 विक्रम वर्षीयस्य त्रिभुवन विश्वविद्यालयाधिनियमस्य अन्तर्गतानां प्रत्यायोजित विधायनानां क्रियान्वयनस्य अवस्था सम्बद्धं गत विक्रम वर्षीयम् अध्ययन प्रतिवेदनं प्रस्तोत। तत्पूर्वं राष्ट्रियसभायां सांसदैः उत्थापितान् प्रश्नान् उत्तरयन् स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः आधारभूत स्वास्थ्य सेवायां सर्वेषां नागरिकाणां प्राप्तिं सुनिश्चितां विधातुं मन्त्रालयः तत्परोऽस्तीति अगदत्। एवमेव सांसदैः उत्थापितान् प्रश्नान् उत्तरयन् पशुपक्षी विकास मन्त्री रामनाथ अधिकारी कृषि क्षेत्रस्य आधुनिकीकरणस्य कृते सर्वकारेण प्रयासः विधीयमानोऽस्तीति अभासत। तत्पूर्वं सांसदा अन्तर्राष्ट्रिय क्षेत्रे नेपालस्य प्रतिष्ठां संरक्षितुम् उड्डयन क्षेत्रस्य सुरक्षायाम् अध्यागमन क्षेत्रे दृष्टानां समस्यानां समाधानाय सर्वकारेण गभीरेण भाव्यमिति उक्तवन्तः। राष्ट्रियसभायाः अपरोपवेशः आषाढमासस्य पञ्चमे दिवसे दिवासपादैकवादने वस्ता। काष्ठमण्डप विश्वविद्यालयस्य 30 दीक्षान्त समारोहे ह्य विभिन्न विधानां 139-1000 विद्यार्थिना दीक्षिताः वर्तन्ते। प्रधानमन्त्रिणः विश्वविद्यालयस्य कुलपतेश्च केपी शर्मा ओलिनः अध्यक्षतायां सम्पन्ने दीक्षान्त समारोहे अमेरिकावर्तिनः वर्तिन्याः माउण्ट साइनाई हेल्थ सिस्टम्स संस्थायाः प्रमुख कार्यकारी अधिकृतस्य ब्रेन्डन जी कार इत्यस्य प्रमुखा थिथ्यम शिक्षा विज्ञान प्रविधि मन्त्रिण विश्वविद्यालयस्य सहकुलपते रघुजी पन्तस्य उपस्थितिश्च आसीत्। तदवसरे प्रधानमन्त्री ओली स्वस्य ज्ञानं व्यवहारेऽपि प्रयुज्य समागतान् समाह्वयान् मौलिकरूपेण प्रतिकृत्य अग्रे वर्धितुं दीक्षित विद्यार्थिभ्यः शुभकामनां प्रायच्छत्। त्रिंश दीक्षान्त समारोहस्य द्वितीय चरणस्य कार्यक्रमं यावद् काष्ठमण्डप विश्वविद्यालयात् अधुनावधि 47,000 एकत्रिंशदधिक 800 च विद्यार्थिना दीक्षिताः सन्ति। एतेषु 5,000+ जनाः अर्थात् 10.8% विद्यार्थिनः वैदेशिकाः वर्तन्ते। य एव अनुसन्धानकर्तृ प्रहरिणाम् अभियोजनकर्तृ सर्वकार्यादिवक्तृणां च तृतीय राष्ट्रिय सम्मेलनस्य पूर्वेद्यो काष्ठमण्डपे उद्घाटनं विदधानः प्रधानमन्त्री केपी शर्मा ओली अनुसन्धानम् अभियोजनं च प्रविधेः प्रयोगेन प्रमाणयुक्ते प्रभावकारिणी च विधाय न्यायनिरूपणाय सहयोगं कर्तुम् उपस्थितान् निरदिशत। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य समितेः उपवेशः आषाढमासस्य 15 दिवसे व्यवस्था। आषाढस्य 15 दिवसे दिवा एकवादनाय दलस्य केन्द्रीय कार्यालये उपवेक्ष्यमाणे उपवेशे सामयिक राजनीतिक घटनाक्रमस्य दलस्य आगामिन्यः रणनीतेश्च विषये विमृक्ष्यते इति कांग्रेस केन्द्रीय कार्यालयस्य मुख्य सचिवः कृष्णप्रसाद पौडेलः अज्ञापयत्। सभामुखा देवराज घिमिरे राज्येन मातृभाषाया संरक्षणाय आवश्यक नीतिः निर्मेया इत्यत्र बलं ददाति। नेवा पत्रकार राष्ट्रिय दबु संस्थया ह्य ललितपुरे आयोजितस्य द्वितीयान्तर्राष्ट्रिय मातृभाषा पत्रकारिता सम्मेलनस्य उद्घाटनस्य क्रमे पूर्वेद्यो सभामुखा घिमिरे मातृभाषायां पत्रकारितायै काठिन्यं सदपि तस्य संरक्षणाय ध्यानं देयमिति प्रावोचत। तदवसरे सभामुखा घिमिरे देशस्य 62 भाषाणां संरक्षणाय सार्वजनिक सेवा प्रसारण नेपालेन राष्ट्रिय समाचार समित्या गोरखा पत्रेण च अनुकूलं कार्यं विधीयमानम् अस्ति इति उक्त्वा प्रसन्नतां व्यक्तवान्। कार्यक्रमे सार्वजनिक सेवा प्रसारण नेपालस्य अध्यक्ष डा महेन्द्र विष्ट मातृभाषायां पत्रकारिताया प्रवर्धनाय सार्वजनिक सेवा प्रसारणेन समुदायेषु सूचनाया समाचाराणां प्रवाहे च प्रभावपूर्ण भूमिका निर्वह्यते इति प्रतिबद्धतां व्यक्तवान्। नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा कथयति नेपाली कांग्रेस दलेन समावेशिना लोकतन्त्रस्य व्यावहारिक अभ्यासो विधीयते। राष्ट्रिय लोकतान्त्रिक अपाङ्गता संघेन दल केन्द्रीय कार्यालय ललितपुरे ह्य आयोजित कार्यक्रमे सभापति देउवा एवं अगदत् इति समाचाराः।